गणानां गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पदाय शृण्वन् नो दिवस्सीदसादनम् प्रणो देवी सरस्वती वाजे वाजिनीमति धीनामवित्रय गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ
नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्त्वमसि
त्वमेव केवलं कर्तासि
त्वमेव केवलं धर्तासि
त्वमेव केवलं हर्तासि
त्वमेव सर्वं कल्विदं ब्रह्मासि
त्वं साक्षादात्मासि नित्यं
ऋतं वच्मि
सत्यं वच्मि
अवक्तारम् अवश्रोतारम्
अवदातारम्
अवधातारम्
अवानुचानमवशिष्यम् तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापो नलो निलो नभः
त्वं चत्वारि वाक्पदानि
त्वं गुणत्रयातीतः
त्वं अवस्थात्रयातीतः त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरो पूर्वरूपम्
अकारो मध्यमरूपम्
अनुस्वारश्चान्त्यरूपम्
बिन्दुरुत्तररूपम्
नादः सन्धानम्
सगुम्भिका सन्धिः
सैषा गणेश विद्या
गणक ऋषिः
निचृत् गायत्री छन्दः
गणपतिर्देवता
ॐ गं गणपतये नमः
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्दिप्रचोदयात्
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणं
रथं च वरदं हस्तैर्बिभ्राणं मूषिकध्वजं
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैर्सुपूजितम्
भक्तानुकं विनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्ट्यादौ प्रकृते पुरुषात्परम्
एवं ध्यायति यो नित्यं स योगी
ಪತಗೇ ನಮೋ ಗಣಪತಗೇ ನಮ ಪ್ರಮಥ ಪತಗೇ ನಮಸ್ತೆ ಅಸ್ತು ಲಂಬೋದರಾಯೇ ಕದಂತಾಯ ವಿಘ್ನನಾಶಿನೇ ಶಿವಸುತಾಯ ವರದ ಮೂರ್ತಯೇ.